इयम् आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम् प्रवाचकः पुनीत त्रिपाठी। अथ वार्ताः। केरल राज्यस्य चतुर्दिवसीय यात्रायां राष्ट्रपतिः द्रौपदी मुर्मुः अद्य केरलस्य राजभवने पूर्वराष्ट्रपतेः के आर नारायणन वर्यस्य प्रतिमायाः अनावरणं करिष्यति। तदनन्तरं राष्ट्रपतिः तिरुवनन्तपुरम नगरस्य समीपे वर्कला नगरस्य शिवगिरिमठे श्रीनारायण गुरुसमाधेः शतवार्षिकोत्सवे भागं ग्रहीष्यति। अपराह्णे राष्ट्रपतिः पालानगरस्य सेंट थॉमस महाविद्यालयस्य प्लैटिनम जुबिलीति समारोहे मुख्यातिथिः भविष्यति। ह्यः राष्ट्रपतिः दर्शनाय सबरीमला पर्वतीय तीर्थं गतवती। अनन्तरं तिरुवनन्तपुरम नगरे केरलस्य राज्यपालेन आयोजिते रात्रिभोज कार्यक्रमेपि भागं भजितवती। वाणिज्य उद्योग मंत्री पीयूष गोयलः आर्थिक व्यापार सहभागितां सुदृढीकरणाय अद्यारभ्य जर्मनी देशस्य आधिकारिक यात्रायां भविष्यति। 25,000 वर्षे भारत जर्मनी सामरिक सहभागित्वस्य 25वां वार्षिकोत्सवः अस्ति। अतः जर्मनी देशेन सह भारतस्य सम्पर्कं वर्धयितुम् इयं यात्रा महत्वपूर्णं सोपानं भविष्यति। भ्रमणावधौ श्रीगोयलः जर्मनी देशस्य आर्थिक कार्य ऊर्जा मन्त्रिणा कैथरीना रीचे इत्यनया सह उच्चस्तरीयं द्वैपाक्षिकं मेलनं करिष्यति। निर्वाचनायोगेन पश्चिमवङ्गप्रदेशे 1,000+ बीएलओ इति बूथस्तरीय अधिकारिभ्यः आयोगस्य निर्देशानाम् अनुपालनाय संचेतना प्रदत्तास्ति। आयोगस्य सूत्रानुसारम् अस्मिन् वर्षे अप्रैलमासे राज्ये बीएलओ इत्येतेषां नियुक्तिप्रक्रिया आरब्धा, परञ्च अक्टूबर मासस्य 17 दिनांकपर्यन्तं 1,000+ बीएलओ अधिकारिणः कार्यभारं न स्वीकृतवन्तः। अतः तेभ्यः आयोगेन निर्देशानाम् उल्लङ्घनाय संचेतना प्रदत्तास्ति। अद्य विहार विधानसभा निर्वाचनस्य द्वितीयान्तिमस्य च चरणाय नामांकनपत्राणां प्रत्यावर्तनस्य अन्तिमा तिथिः अस्ति। नवम्बर मासस्य 11 दिनांके 20 मण्डलेषु प्रसृतेषु 22,100 विधानसभाक्षेत्रेषु मतदानं भविष्यति। अस्मिन्नेव क्रमे कैमूर मण्डलस्य मोहनियायाः आरक्षित निर्वाचनक्षेत्रे आरजेडी इति राष्ट्रिय जनता दलस्य प्रत्याशिनः श्वेता सुमन इत्यस्याः नामांकनं ह्यः निरस्तम् अभवत्। पश्चिमी चंपारण मण्डलस्य वाल्मीकि नगर विधानसभाक्षेत्रे जनसुराज दलस्य प्रत्याशिनः दृग् नारायण प्रसादस्य नामांकनम् अपि ह्यः निरस्तम् अभवत्। द्वितीये चरणे एतयोः निर्वाचनक्षेत्रेषु मतदानं भविष्यति। भारत ऋतु विभागेन अद्य आन्ध्रप्रदेशे उत्तर तमिलनाडु राज्ये दक्षिणान्तरिक कर्णाटके केरले च अतिवृष्ट्यै रक्तवर्णीया संचेतना प्रसारितास्ति। अण्डमान निकोबार द्वीप समूहेषु केरल माहे कोंकण गोवा मध्य महाराष्ट्र दक्षिण कर्नाटक तमिलनाडु पुदुचेरी करैक्कलेषु च एकांत क्षेत्रेषु आगामि दिनद्वयोः अत्यधिक वृष्टेः अतीव संभावना विद्यते इति विभागेन सूचितम्। आकाशवाण्या सह वार्तालापं कुर्वन् ऋतुविभागस्य वरिष्ठः वैज्ञानिकः आर.के. जेनामणि अवदत् यत् तमिलनाडु आन्ध्रप्रदेशे च अतिवृष्टेः स्थितिः यथावदेव भविष्यति। आईसीसी महिलानां एकदिवसीय क्रिकेट विश्वचषक स्पर्धायां अद्य मध्याह्ने नवी मुम्बय्याः डीवाई पाटिल क्रीडांगणे भारतीय दलं न्यूजीलैंड दलं सम्मुखी करिष्यति। क्रीडायाः आरम्भः मध्याह्ने 3 वादने भविष्यति। इति वार्ताः।